श्री भगवान वाच भूज नह बाणुमे परम वच ये हम प्रीयमाय क्षा न मे विदुः सुरगणा प्रभवं न महर्षय अहमादिर्देवानां महर्षीणां च सर्वश यो मामजमनादिश्च वेत्ति लोकमहेश्वरम् असम्मूढसमर्थेषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानमसम्मोह क्षमा सत्यं दमः शमः सुखं दुःखं भवो भावो भयं चाभयमेव च अहिंसा समता तुष्टि स्तबोदानं यशो यश भवन्ति भावभूतानां मत एव पृथग् विदा महर्षरसप्तपूर्वे चत्वारो मनवस्तथा मद्भावामनसा जाता येषां लोक इमाः प्रजा एतां विभूतिं योगं च नाम यो वेत्ति तत्त्वतः सोऽविकम्पेन योगेन युज्यते नात्र संशय अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ति मां दुराभावसमन्विता मच्चित्ता मद्वत् प्राणा बोधयन्तः परस्परम् कथयन्तश्च मां नित्यं तोष्यन्ति च रमन्ति च तेषां सततयुक्तानां अजतां प्रीतिपूर्वकं ददामि बोद्धयोगं तं येन मापुपयान्ति ते तेषामेवानुकम्पाथ मम ज्ञानजं तमा नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्यता अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं देव्यमादिदेवमजं विभु आहो स्वामृषयः सर्वे देवर्षिर्नारदस्तथा असितो देवलो व्यास स्वयं चैव ब्रवीषि मे सर्वमेतद्वितं मन्ये यन्मां वदसि केशव न हि ते भगवान् व्यक्तिर्देवान् दान वा स्वयमेवात्मनात्मानं वेत्थत्वं पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हस्य शेषेण देव आत्म विभूतयो याभिर्विभूतिभिर्लोकानिमायो व्याप्यतिष्ठति कथं वेद्यामहं योगे स्वाशदा परिचिन्तय केषु केषु च भावेषु चेद्योऽसि भगवन्मया विस्तरेणात्मनो योगं विभूते च जनार्दन भूय कथयथेक्ते श्रेण्वतो नास्ति मे मृतम् श्रीभुवनुवच हन्तते कथयिष्यामि दिव्याह्यात्मविभूतय प्राधान्यतः गुरु श्रेष्ठ नास्यन्तो विस्तरस्य मे अहमात्मा गुडाकेश सर्वभूता सदस्थित अहमादेशमध्यं च भूतनामन्त एव च आदित्यानामहं विष्णो ज्योतिषां रविरल्सुमान् मरीचिर्मरुतामस्मि नक्षत्राणामहं शशि वेदानां सामवेदोऽस्मि देवानामस्मि वासव इन्द्रियाणां मनस्तस्मि भूतानामस्मि चेतना रुद्राणां शङ्करस्तस्मि वेत्तेषु यक्षरक्षसाम् वस्तूनां पावकस्तस्मि मेरुशिखरिणामहम् पुरोधुशान्तमुख्यं मां बृद्धिपार्थविहस्पति सेनानीनामहं स्कन्द सरसामस्मि सागर महर्षीणां भृगुरहं विरामास्म्येकमक्षरम् यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालय अश्वत्थ सर्ववृक्षाणां देवर्षीणां च नारद गन्धर्वाणां चेतरथ सिद्धानां कपिलो मुनि उच्चैश्रवसमश्वान वेद्धि मामृतोद्भवम् ऐरावतं गजेन्द्राणां नराणां च नराधिपान् आयुधानामहं वज्रं धेनूनामस्मि कामधो रजनसास्विकां दर्प सर्पानामस्मि वासुकी अनन्तस्तास्मि नागानां वरुणो यादृशामहम् पितॄणामर्यमासस्मि यमसंयमतामहम् प्रह्लादोस्तास्मि दैत्यानां कालकलदतामहम् मृगानां च मृगीन्द्रूणां वैनतेयश्च पक्षिणां पवन पवतामस्मि रामशतभृतामहम् झषाणां मकरस्तस्मि श्रोतसामस्मि जाह्नवी सर्गणामादिरन्तस्तः मध्यं चैवाहमर्जुन अध्यात्मविद्या विद्यानां वाद प्रवदतामहम् अक्षराणामकारोऽस्मि द्वन्द्वसामासिकस्य च अहमेवाक्षयः कालो जाताहं विश्वतो मुख मृत्युः सर्वहरस्ताः मोद्भवश्च भविष्यताम् कीर्तिः श्रीर्वाक्यनारीणाम् स्मृतिर्मेधाधृते क्षमा बृहत्साम तथा साम्नाम् गायत्री छन्दसामहम् मासानां मार्गशीर्षो ऋतूनां कुसुमाकर यूतं फलयतामस्मि तेजस्तेजस्विनामहम् जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् कृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जय मुनीनामप्यहं व्यास कवीनामुसना कवि दण्डोदमयतामस्मि नीतिरस्मजिगीषताम् मौनं चैवास्मि गुह्यनां ज्ञानं ज्ञानवतामहम् यत्चापि सर्वभूतानां बीजं तदहमर्जुन न तदस्ति विना यस्यात् मया भूतं सरातरम् नान्तोऽस्ति मम दिव्यानां विभूतीनां परं तव एष तुद्देशतः प्रोक्तो विभूतिर्विस्तरो मया यद्यद्विभूतिमासत्वं श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्वं मम तेजोऽंशसम्भवम् अथवा बहुलेतेन किं ज्ञातेन तवार्जुन हेष्टव्याहमिदं कृष्ण नेकांशेन स्थितो जगत् नेकांशेन स्थितो जगत् ॐ तस्मत् श्रीमद्भगवद्गीतास्तु श्रीकृष्णादेव सर्वादेव योगो नाम दशमः।